अथ त्रयोदशोऽध्यायः अथ ध्यानम् एवं बालार्कमण्डलाभासां यदुर्बाहं त्रिलोचनां पाशाङ्कुशवराभेतेर्धारयन्तीं जिवां भजी ओमर्षिरुवाच एतत्ते कथितं भूपा देवी महात्म्यमुत्तमम् एवं प्रभावा सा देवी यदं धारयते जगति विद्या तथैव क्रियते भगवद्विष्णुमायया तया त्वमेष वैश्यश्च तथैवान्यविवेकिनः मोह्यन्ते मोहिताश्चैव मोहमिष्यन्ति जापरे तामुपहि महाराजा शरणं परमेश्वरीम् आराधिता सैव नृणां भोगस्वर्गावर्गदा मार्कण्डेय उवाच इति तस्य वचः श्रुत्वा सुरथः धनराधिपः प्रणिपत्य महाभागं तमृषिं शंसितवर्णं निर्विण्णोति ममत्वेन राज्यापहरणेन च जगाम सद्यस्तपसि स च वैश्यो महामुनि सन्दर्शनार्थमम्बाया नदीपुलिनसंस्थितः स च वैश्यस्तपस्तेवे देवी सूक्तं परं जपन् तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम् अर्घणां च क्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः निराहारो यदात्मानो तन्मनस्थौ समाहितौ ददतुस्तौ बलिं तस्यै निजगात्रा त्रिभुक्षितम् एवं समाराधयतो त्रिभुर्वर्षेरितात्मनोः परितुष्टा जगद्धात्री प्रत्यक्षं प्राहजण्डिकां देवी उवाच यत्प्रार्थ्यते त्वया भूपा त्वया च कुलनन्दन मत्तस्तत्प्राप्तां सर्वं परितुष्टा ददामि तत् मार्कण्डेय उवाच ततो बभ्रे नृपोराज्यमभिभ्रंशन्निजन्मनि अत्रैव च निजं राज्यं हतशत्रुबलं बलात् सोऽभिवैशस्ततो ज्ञानं वर्वे निर्विण्णमानसः ममेत्यामिति प्राज्ञः सङ्गविच्युतिकारकम् देवी उवाच स्वल्पैरहोभिर्नृपते स्वराज्यं प्रासते भवान् हत्वा रिपुनस्खलितं तव तत्र भविष्यति मृतश्च भूयः सम्प्राप्या जन्मदेवातु वसुधः सावर्ण्यो मनुर्नामा भवान् भूयि भविष्यति वैश्यवर्यत्वयायश्च वरोस्पत्तोऽभिवाञ्छितः तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति मार्कण्डेय उवाच इति दत्त्वा तयोर्देवी यथाभिलषितं वरं भगवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता एवं देव्या वरं लब्ध्वा सुरथा क्षत्रियर्ढवा सूर्याज्जन्मसमासाद्या सावरनिर्भविता मनः एवं देव्या वरं लब्ध्वा सुरथा क्षत्रियर्ढवा सूर्याज्जन्मसमासाद्या सावरनिर्भविता मनः एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्ढवा सूर्याज्जन्मसमासाद्या सावरनिर्भविता मनः इति श्रीमार्कण्डेयपुराणसारणिके मन्दिरे श्रीदेवीमहात्म्ये सुरथवैषयोर्वरप्रदानं नाम त्रयोदशोऽध्यायः ॐ दुं दुर्गायैर्नमः ॐ श्रीं महालक्ष्मी नमः ॐ ऐं सरस्वती नमः ॐ तत्सत् ब्रह्मार्पणमस्तु।